एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री नेकपा माओवादी केन्द्रस्य अध्यक्षश्च पुष्पकमल दाहाल प्रचण्डः अद्य संसदः अवरोधः निराकृतो भवतीति भासते। पेरिस डाँडावर्तिनी दलस्य केन्द्रीय कार्यालय प्राणोत्सर्गिणम् रामवृक्ष यादवम् प्रति श्रद्धाञ्जलिम् अर्पयितुम् ह्य आयोजिते कार्यक्रमे प्रधानमन्त्री प्रचण्डः संसदः गतिरोधस्य अन्ताय आत्मना सततम् प्रयत्यमानमस्तीति अवदत्। कार्यक्रमे प्रधानमन्त्री नेकपा माओवादी केन्द्रस्य अध्यक्षश्च प्रचण्डः सर्गिणः रामवृक्ष यादवस्य चित्रे माल्यम् समर्प्य श्रद्धाञ्जलिम् आर्पयत्। संविधान सभायाः अध्यक्ष सुभाष नेवांग कथयति संसदः अवरोधः संविधान सम्मतः नियमसंगतश्च नास्ति। संघीय संसदा ह्यो धुलीखेलस्थाने आयोजितायाम् संसद संचार सम्बन्धश्च इति विषयिण्याम् अन्तरक्रियायाम् असौ राष्ट्रस्य संसदीयाभ्यासे दृश्यमानः संसदः अवरोधः नियमसंगतो नास्तीति अगदत्। नेकपा संसदीय दलस्य उपनेता नेवांग संसदः अवरोधः राजनीतिक रूपेण विधीयते इत्यतः एतस्य पुनः पुष्टीकरणं सम्बद्ध दलस्य दायित्वं भवतीति अतर्कयत। पूर्व प्रधान न्यायाधीश कल्याण श्रेष्ठ अकथयत् सदने पश्चात्तन समये विधीयमानेन संसदः अवरोधनेन संसदीय पद्धतेः विकासाय सहयोगो न भवति। उपसभामुखा इन्दिरा राणा अगदत् संचार क्षेत्रेण राष्ट्रजनतयोः हितस्य पक्षे सदैव सचेष्टतया लेखन्याः चालनम् आवश्यकम् वर्तते। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः भाषते यत्र कुत्रापि संस्थितौ अपि नेपाली मनः भावम् संस्कृतिम् नेपाली भाषाम् च प्रति गर्वानुभूतिः विधेया। इन्ट्रा फाउण्डेशन नाम्ना प्रतिष्ठानेन ह्य काष्ठमण्डपे आयोजितम् मेरो भ्वाइस युनिभर्सिटी मम वैश्विक स्वरः मेरो डान्स युनिभर्सिटी मम वैश्विक नृत्यम् चेति स्पर्धायाः भव्यम् अन्तिम कार्यक्रमम् सम्बोधयन् प्रधानमन्त्री प्रचण्डः कलाम् संस्कृतिम् च स्वस्थानात् प्रथमवारम् प्रधानमन्त्रिणः रूपेण अग्रे वर्धयितुम् यथाशक्ति सहयोगो विहित इति संस्मरन् आगामि दिनेष्वपि सहयोगम् विधातुम् प्रतिबद्धताम् व्यक्तवान्। नेपाले अधुनावधि सर्वाधिक धनराशे पुरस्कारवत्याः गायन प्रतियोगितायाः उपाधिः भारतस्य प्रीतम राय इत्यनेन नृत्य प्रतियोगितायाः उपाधिः थाइल्याण्ड देशस्य खुशी कार्की च प्राप्नुताम्। उपप्रधान रक्षामन्त्री पूर्णबहादुर खड्का तर्कयति नहि निर्वाचनाय अपितु संविधानस्य रक्षायै गठबन्धनम् विहितम् वर्तते। रूपन्देही जनपदस्य भैरहवास्थाने यः आयोजिते नेपाली कांग्रेस दलस्य तृतीय क्षेत्रस्य क्षेत्रीय सम्मेलने उपप्रधानमन्त्री खड्का जनतायाः अधिकाराणाम् स्वायत्तीकर्तुः तात्कालिकस्य सर्वकार प्रमुखस्य अभिप्रायस्य निरोधनाय गठबन्धनम् विहितमिति समस्पष्टयत्। उपप्रधानमन्त्री खड्का अकथयत् संज्ञान निर्मातव्याः सर्वे संघीयाः अधिनियमाः सर्वकारेण प्राथमिकतायाम् संस्थाप्य एतस्मिन्नेव अधिवेशने संसदि नेष्यन्ते। दलस्य उपसभापतिश्च उपप्रधानमन्त्री खड्का नेपाली कांग्रेस दलम् विपुलतम दलम् सदपि पौषस्य दशम दिवसस्य पश्चात् कांग्रेस दलीय कार्यकर्तृषु नैराश्यम् व्याप्तमस्तीति चर्चयन् अब्रवीत्। विश्वासस्य वातावरणस्य निर्माणानन्तरम् नैराश्यमिदम् आशायम् परिणतम् भविष्यति। उपप्रधान गृहमन्त्री नारायण काजी श्रेष्ठः निगदति भ्रष्टाचारस्य दोषिणः उन्मुक्तिम् न प्राप्नुवन्ति। प्रेस सेन्टर नेपालस्य कास्की जनपद समन्वय समित्या ह्य पोखरा विमानस्थले आयोजिते पत्रकार मेलन कार्यक्रमे मन्त्री श्रेष्ठ भ्रष्टाचारे दोषिणः निर्धारिताः दलस्य नेतारः पूर्व प्रधानमन्त्रिणो वा सर्वेऽपि दण्ड्यन्ते इति प्रावोचत्। सर्वकारेण भ्रष्टाचारस्य विरोधिनः अभियानस्य सञ्चालनस्य अवस्थायाम् प्रमुख प्रतिपक्षिणा एमाले दलेन सहितैः कतिचित् दलैः संसदि विहितम् अवरोधनम् अनुचितम् अस्तीति असौ अगदत्। राज्येन निर्मितया संरचनया एव सम्प्रति स्वर्ण तास्कर्यस्य प्रकरणे अनुसन्धानम् विधीयमानम् अस्तीति भाषमाणः गृहमन्त्री श्रेष्ठ एतदर्थम् अपरस्याः कस्यापि उच्चस्तरीय समितेः आवश्यकता नास्तीति अतर्कयत्। ह्य एव नेकपा माओवादी केन्द्रस्य गण्डकी प्रदेश समितेः पोखरा स्थाने उपविष्टे सप्तम पूर्णोपवेशे दलस्य वरिष्ठोपाध्यक्ष उप प्रधानमन्त्री च श्रेष्ठ सर्वकारेण शान्ति प्रक्रियया सम्बद्धानि अवशिष्ट कार्याणि शीघ्रं निर्णय प्रापयितुम् ईप्सितानि सन्तीति अवोचत। तदवसरे उप प्रधानमन्त्री श्रेष्ठ आगामिन षोडश दिवसात् सञ्चालयिष्यमाणस्य त्रैमासिकस्य जनतया सह माओवादी इति विशेष रूपान्तरणाभियानस्य गण्डकी प्रदेशे प्रभावकारिण सम्पादनत्वेन प्रवर्तयितुं गण्डकी प्रदेशस्य नेतृ कार्यकर्तृन् निरदिशत। ऊर्जा जलस्रोत सेचन मन्त्री शक्तिबहादुर बस्नेत वदति सर्वकार सामुदायिकं ग्रामीण वैद्युतीकरणाभियानम् अतिरिक्तं व्यवस्थितं विदधाति। ललितपुरे पूर्वेद्यो आयोजिते कार्यक्रमे मन्त्री बस्नेत जनताया विकासाभियानस्य सहभागिताया निर्मातृ पद्धति अतिरिक्तं विस्तार्यते इति विश्वासम् अदापयत। मन्त्री बस्नेत जनताया जीवनस्य परिवर्तनकारिणां जनानां कृते नीति सिद्धान्तौ निर्मातुं बलं प्रादात्। कृषि पशुपक्षी विकास मन्त्री डाक्टर बेदुराम भूषाल भाषते धान्यस्य आयातम् रोद्धुम् भूमिः कृषिरहिता न स्थापनीया। आराष्टम् विद्यमानासु कृषियोग्य भूमिषु आसन्न दशलक्षम् त्रिंशत् सहस्राणि चेति हेक्टर परिमिता भूमि कृषिरहिता स्थिति चर्चयन् मन्त्री डाक्टर भूषाल एताः भूमयः उपयोक्तव्यः इति उदैरयत। समाजवादी सहकारी संगठन नेपालस्य बागमती प्रदेश स्तरीय मेलायाम् इहो मन्त्री डाक्टर भूषाल धान्यस्य आयातम् रोद्धुम् कृषिरहितायाम् भूम्याम् कृषिकरणाय बलम् ददत् एतदर्थम् आयव्ययके अपि उपयुक्त व्यवस्था विहितास्तीति असूचयत्। भौतिक पूर्वाधार यातायात मन्त्री प्रकाश ज्वाला कथयति महाकाली नद्याम् निर्माणाधीन चतुःपंक्तियुत सेतु सुदूरपश्चिम प्रदेशस्य समृद्धे मेरुदण्डस्य रूपेण स्थितो वर्तते। महाकाली सेतो ह्य कञ्चनपुरे स्थलगतम् निरीक्षणम् विदधानो मन्त्री ज्वाला सेतो निर्माणानन्तरम् राष्ट्रस्य आर्थिक विकासे महान् सहयोगो भविष्यतीति विश्वासम् व्यक्तवान्। सेतोः निर्माणस्य क्रमे उत्पन्नाः सर्वाः समस्याः समाधास्यन्ते इति मन्त्री ज्वाला प्रतिबद्धतां व्यक्तवान्। समाजवादी संयुतेः उपवेशः अद्य नेकपा एकीकृत समाजवादी दलस्य केन्द्रीय कार्यालये उपविश्यमानो वर्तते। अद्य सायम् उपविश्यमाने उपवेशे संयुतौ आबद्धैः चतुर्णां दलानां शीर्षनेतृभिः सर्वकारस्य गतिविधीनां सामयिक राजनीतिक घटनाक्रमस्य च विषयेषु विमृश्यते इति नेकपा एकीकृत समाजवादी दलस्य महासचिवः घनश्याम भूषालः अज्ञापयत्। कोशी प्रदेशस्य मुख्यमन्त्री उद्धव थापा कथयति डेंगी रोगेण संक्रान्तानां जनानां उपचारस्य दायित्वं प्रदेश सर्वकारः गृह्णाति। ह्यो धरानोप महानगरपालिकायाः विभिन्नानां राजनीतिक दलानां ध्यानाकर्षण पत्रं गृह्णन् मुख्यमन्त्री थापा अवदत् डेंगू रोगस्य नियन्त्रणाय निरोधनाय च प्रदेश सर्वकारः प्रभावकारी कार्यं चालयति। मुख्यमन्त्री थापा डेंगू रोगस्य नियन्त्रणाय अभियाचितम् औषधसेचनोपकरणं प्रदेश विपद व्यवस्थापन समितेर्माध्यमेन प्रदास्यते इति असूचयत्। कोशी प्रदेशे मासत्रयस्य अवधौ डेंगू रोगस्य कारणेन एकादश जनाः मृताः सन्ति। नेपाली कांग्रेस दलस्य महामन्त्री गगन कुमार थापा भाषते भ्रष्टाचारे आरोपितानां जनानां भारम् ऊढ्वा नेपाली कांग्रेस दलेन अग्रे न प्रवर्त्यते। नेपाली कांग्रेस दलस्य इलामा नगर कार्य समितेः द्वितीय नगर सम्मेलनस्य उद्घाटन कार्यक्रमे ह्यो महामन्त्री थापा प्रावोचत भ्रष्टाचारे सम्पृक्तेभ्य केभ्योऽपि जनेभ्य उन्मुक्ति न प्रदातव्या। महामन्त्री थापा दलस्यैव न अपितु घटबन्धने येषु केषु वा राष्ट्रिय प्रश्नेषु विहिताः निर्णयाः पारदर्शिनो विधेयाः इति बलं प्रादात्। महामन्त्री थापा जनतायां युवसन्ततौ च स्थितस्य नैराश्यस्य अन्ताय कांग्रेसदलेन प्रयत्ननीयम् इति बलम् अदात्। कञ्चनपुरस्य वनवासा सेतोः निकटवर्तिनी विपिने दौ युवानौ अचेतनावस्थायां प्राप्तौ स्त तौ अवलुण्ठकस्य वञ्चने निपतितौ स्यातामिति अनुमितं वर्तते। अचेतनावस्थायां प्राप्तयो तयोर्मध्ये एक अछामगृहवर्ती रामबुढा वर्तते अपरस्य यूनः परिचय ज्ञातो नास्तीति प्रहरी ज्ञापयति।